पितामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीलसादनम् प्रणो देवी सरस्वती वाजेभिर्वाजिनीवते धीनामभित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाचरव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनूरघोरा पापकाशिनी तया नस्तनुवाचन्तव या गिरिशन्ताभि चाकशी यामिषुम् गिरिशन्त हस्ते विभर्षस्तवे शिवाम् गिरित्रताम् गुरुमाहिगुम् श्रीपुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्चावदामसि यथा नः सर्वमिज्जगत यक्ष्मगुम् सुमना असत् अध्यवोचरदि वक्ता प्रथमो दैव्योऽभिषक् अनेकश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असो यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेवागुम् रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागुम् हेण इमहे असव्यो वसर्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अर्षन्नदृशन्नदहार्यः उतैनम् विश्वाभूतानि सदृष्टो मृडयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय वीदुषे अथो ये अस्य सत्त्वारोहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोराग्नियोर्जा याश्च देहस्त इषव पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु ते निषीर्य शल्याणामुका शिवोल सुमना भव विज्यम् धनुः कपर्दिगो विशल्यो पाणवागुम् उत अनेशन्नस्येषव आभुलस्य निषङ्गतिः या ते हेतिर्मीदृष्टवहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधाया नारदाय धृष्टवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् विणक्तु विश्वतः अथो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकात्मिकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् పతయే నమో నమః సస్తింజలాయ త్రిశీమతే పతీనాం పతయే నమో నమో బభ్లుషాయ విద్యాధినేందానాం పతయే నమో నమో హరికేశాయోపరీతినే పుష్టానాం పతయే నమో నమో భవస్య హేత్యై జగతాం పతయే నమో నమో రుద్రాయ తతామిని క్షేత్రాణాం పతయే నమో నమః సూతాయ హంత్యాయ వరానాం పతయే నమో నమో రోహితాయ స్థపతయే వృక్షాణాం పతయే నమో నమో మంత్రిణే వాణిజాయ కక్షాణాం పతయే నమో నమో భువంతయే వారివస్కృతాయౌషధీనాం పతయే నమో నమ ఉచ్చైర్దోషాయ క్రందయతే పత్తీనాం పతయే నమో నమ కృష్ణవీతాయ ధావతే సత్వరాం పతయే నమః నమస్సామానాయ నిర్వ్యాధిన ఆవ్యాధినీనాం పతయే నమో నమ కగుభాయ నిషంగిణే సేనానాం పతయే నమో నమో నిషంగిణ ఇషుధిమతే తస్కరాణాం పతయే నమో నమో వంచతే పరివంచతే స్థాయూనాం పతయే నమో నమో నిచేదవే పరిచరాయారణ్యానాం పతయే నమో నమః శ్రీకావ్యభ్యో జిగాంసభ్యో ఉష్ణతాం పతయే నమో నమో శివభ్యో రక్తం చరభ్య ప్రకృంతానాం పతయే నమో నమ ఉష్ణీషిణే గిరిచరాయ కులుంచానాం పతయే నమో నమ ఇషువద్భ్యో ధన్వానిభ్యశ్చ వో నమో నమ ఆధన్వానేభ్య ప్రతిదధానేభ్యశ్చ వో నమో నమ ఆయచ్చభ్యో విసృజభ్యశ్చ వో నమో నమోస్యభ్యో విద్యభ్యశ్చ వో నమో నమ ఆసీనేభ్యశ్చ యానేభ్యశ్చ వో నమో నమ స్వపద్భ్యో జాగ్రద్భ్యశ్చ వో నమో నమస్తిష్టద్భ్యో దావభ్యశ్చ వో నమో నమ సభాభ్యః సభాపతిభ్యశ్చ వో నమో నమో అశ్వేభ్యోశ్వపతిభ్యశ్చ వో నమః నమ ఆవ్యాధినీభ్యో వివిధ్యంతేభ్యశ్చ వో నమో నమ ఉగణాభ్యస్త్రయోపదేభ్యశ్చ వో నమో నమో గృత్సేభ్యో గృత్సపదిభ్యశ్చ వో నమో నమో ప్రాదేభ్యో వ్రాతపదిభ్యశ్చ వో నమో నమో గణేభ్యో గణపతిభ్యశ్చ వో నమో నమో విరూపేభ్యో విశ్వరూపేభ్యశ్చ వో నమో నమో మహద్భ్యః చుల్లకేభ్యశ్చ వో నమో నమో రథేభ్యో రథేభ్యశ్చ వో నమో నమో రథేభ్యో రథపతిభ్యశ్చ వో నమో నమః సేనాభ్యసేనానిభ్యశ్చ వో నమో నమః శత్రుభ్యః సంగ్రహీతృభ్యశ్చ వో నమో నమస్తక్షభ్యో రథకారేభ్యశ్చ వో నమో నమః కులారేభ్యః కర్మారేభ్యశ్చ వో నమో నమః పుంజిష్ఠేభ్యో నిషాదేభ్యశ్చ వో నమో నమ ఇషుకృద్భ్యో ధన్వకృద్భ్యశ్చ వో నమో నమో మృగయోభ్యశ్వనిభ్యశ్చ వో నమో నమశ్వభ్యశ్వపతిభ్యశ్చ వో నమః నమో భవాయ చ రుద్రాయ చ నమః శర్వాయ చ పశుపతయే చ నమో నీలగ్రీవాయ చ శ్రీకంఠాయ చ నమః కపర్దినే చ युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो केशाय च शिपिविष्टाय च नमो मेरुष्टमाय जेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षेयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाशिराय च नमः शीघ्र्याय च शेभ्याय च नमः मूर्भ्याय चावस्वन्याय च नमः श्रोतस्याय च वेद्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जगन्याय च बुद्धिराय च नमः सोऽभ्याय च प्रतिसद्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च ववृन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिणे च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च हनन्याय च नमो दृष्टवे च प्रभृशाय च नमो दूताय च रहिताय च नमो निषङ्गिणे चेषु धिमते च नमः तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः स्तोत्याय च सरस्याय च नमो नात्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वश्याय च वश्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ
हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्ते च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमः ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः सेत्याय च कोल्याय च नमः पाद्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आताद्याय च लाद्याय च नमः षष्ट्याय च भेन्याय च नमः श्रीकत्याय च प्रवाह्याय च नमः इरिण्याय च प्रपत्याय च नमः त्रिगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश ఇష్ప్యాయ చ నమః పాగుంసవ్యాయ చ రజస్యాయ చ నమః శుష్క్యాయ చ హరిత్యాయ చ నమో లోప్యాయ చోలప్యాయ చ నమః ఊర్వ్యాయ చ సూర్మ్యాయ చ నమః పర్యాయ చ పర్ణశద్యాయ చ నమో పగురమాణాయ చ విఘ్నతే చ నమః ఆఖిదతే చ రక్షిదతే చ నమో వక్కిరికేభ్యో దేవానాగుం హృదయేభ్యో నమో విక్షీణకేభ్యో నమో విజిన్వక్కేభ్యో నమ ఆలిహరేభ్యో నమ ఆమీహకేభ్యః ద్రావే అంధతస్పతే దరిద్రన్నీలలోహితా ఏషాం పురుషాణాం ఏషాం పశూనాం మా భేర్మా రోమో ఏషాం కించ నామమత్ యాతే రుద్ర శివా తనో శివా విశ్వాః భేషజే శివా రుద్రస్య భేషజే తయా నో మృడ జీవతే ఇమాగం రుద్రాయ తమసే కపర్దినే క్షయద్వీరాయ ప్రవరామహేమతిం యథానశ్రవసద్విపదే చతుష్పదే విశ్వం పుష్టంగామే అస్మిన్నరాతురం మృడారో రుద్రోదనో వయస్కృతి క్షయద్వీరాయ నమసామి దేవతే యచ్చం చయోస్య మనురాయజే పితా తదశ్యామతమ రుద్ర ప్రణీతో మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వదే పితరం మోత మాతరం ప్రియామానస్తనో రుద్రరీరిషః మానస్తోకేతన ఏ మాన ఆయుషి మాను కోషు మాను అశ్వేషు రీరిషః వీరాన్మానో రుద్రవామితో వదిర్ హవిష్మంతో నమసామి దేవతే ఆరాత్రే లోగ్న ఉత పూరుషగ్నే క్షయద్వీరాయ సుమ్నమస్మేతే అస్తు రక్షా చ నో అరిష దేవ బ్రూజదా చ నశర్మ యచ్చ విబర్హా స్తుహి శ్రుతం గత్త సదయువాన్ ఋగన్న భీమముపహత్తు ముగ్రం మృడాజరిత్రే రుద్రస్తవాన్ అన్యంతే అస్మన్నివ పంతు సేనా పరిణో రుద్రస్య హేతుర్విషత్తు పరిత్వేషస్య దుర్మతిరగాయోః అవస్థినా మగవద్భ్యస్తనుష్వమీవస్తోకాయతనయాయ మృడయా మీనుష్టమశివతమశివో నః సుమనా భవ పరమే వృక్ష ఆయుధం నిదాయ కృత్రిం వసాన ఆచర పినాకం విభ్రదాగహి వికిరిత విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేతయోన్యమస్మన్నివ పంతు తాః సహస్రాణి సహస్రదా బాహువోస్తవ హేతయః తాశామీశానో భగవః పరాచీనాముఖాకృతి సహస్రాణి సహస్రశో ఏ రుద్ర అలిభూమ్యా ఏషాగుం సహస్రయోజనే వధన్వాని తన్మతే అస్మిన్ మహత్యర్నవేందరిక్షే భవా అధీ నీలగ్రీవాసి నికంఠా శర్వా అధః క్షమాచరాః నీలగ్రీవాసి నికంఠాదివగుం రుద్రా ఉపశ్రితాః నీలక్షేషు తస్పింజరా నీలగ్రీవా విలోహితాః ఏ భూతానామధిపతయో విశికాసక్తపర్తినః ఏ అన్యేషు వివిధ్యంతి పాత్రేషు పిబతో జనాన ఏ పదాం పరిరక్షయ ఐలభృదాయ వ్యుదః ఏ తీర్థాని ప్రచలంతి శ్రికావంతో నిషంగిణః ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రామితస్తిరే तेषागुंसास्वयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येन्दरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषमस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो देचेर्दशो द्वास्तेभ्यो नमस्ते नो मृडयन्तु देयम् विश्वो यश्च नो द्वे स्थितम् भोजम् मे ददामि ब्रह्मकं यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव वन्दनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नयो अप्सूय ओषधेषु यो रुद्रो विश्व भुवनादिवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पारा मृत्यो मत्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु ह्यस्विषस्तु तन्वायो विश्वस्य क्षयति मे सजस्य यक्ष्वामहेशो मनसाय रुद्रम् नमो भिर्देवमसुरन्धुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषयो यगु शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसे मा वद्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रथमश्च मे प्रयतिश्च मे प्रदितिश्च मे धृतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे स्वश्च मे चित्तम् च महादेतम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च महोजश्च मे सहश्च महायुश्च मे चरा च महात्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे जैष्ठ्यम् च महाधिपत्यम् च मे मन्यश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे परिमा च मे प्रतिमा च मे वश्मा च मे द्रागुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्च मे धनम् च मे वशश्च मे द्विषश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुखम् च मे सुपतम् च मरुद्धम् च मरुद्धिश्च मे क्लुप्तम् च मे क्लुप्तिश्च मे मतिश्च मे सुमतिश्च मे शरम् च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे క్షేమశ్చ మే ధృతిశ్చ మే విశ్వం చ మే మహశ్చ మే సంవిచ్చ మే జ్ఞాత్రం చ మే స్వోశ్చ మే ప్రసోశ్చ మే శ్రీరం చ మే లయశ్చ మరుతం చ మే మృతం చ మే యక్ష్మం చ మే నామయశ్చ మే జీవాతుశ్చ మే దీర్ఘాయుత్వం చ మే న మిత్రం చ మే భయం చ మే సుఖం చ మే శయనం చ మే సూషా చ మే సుదినం చ మే ఊర్జ మే సూనృతా చ మే పయశ్చ మే రసశ్చ మే ఘృతం చ మే మధు చ మే సద్భిశ్చ మే సపేదిశ్చ మే కృషిశ్చ మే వృష్టిశ్చ మే చైత్రం చ మహోద్భిద్యం చ మే రయిశ్చ మే రాయశ్చ మే పుష్టం చ మే పుష్టిశ్చ మే విభుచ మే ప్రభు చ మే బహుచ మే భూయశ్చ మే పూర్ణం చ మే పూర్ణతరం చ మే శృతిశ్చ మే కూయవాశ్చ మేనం చ మే శుచ్య మే ప్రీహయశ్చ మే యవాశ్చ మే మాషాశ్చ మే తిలాశ్చ మే ముద్గాశ్చ మే ఖల్వాశ్చ మే గోధూమాశ్చ మే మసురాశ్చ మే ప్రియంగవశ్చ మే నవశ్చ మే శ్యామకాశ్చ మే నివారాశ్చ మే అశ్మాశ్చ మే మృత్తికాశ్చ మే గిరయశ్చ మే పర్వతాశ్చ మే శిఖరాశ్చ మే వనస్పతయశ్చ మే హిరణ్యం చ మే యశ్చ మే శేషం చ మే త్రపుశ్చ మే శ్యామం చ మే లోహం చ మే అగ్నిశ్చ మాపశ్చ మే విరుధశ్చ మోషధయశ్చ మే కృష్ణపచ్చం చ మే కృష్ణపచ్చం చ మే గ్రామ్యాశ్చ మే పశవ ఆరణ్యాశ్చ యజ్ఞేన కల్పంతాం విత్తం చ మే విత్తిశ్చ మే భూతం చ మే భూతిశ్చ మే వసు చ మే వసతిశ్చ మే కర్మ చ మే శక్తిశ్చ మే అర్థశ్చ మ ఏవశ్చ మ ఇతిశ్చ మే గతిశ్చ మే అగ్నిశ్చ మ ఇంద్రశ్చ మే సోమశ్చ మ ఇంద్రశ్చ మే సరితా చ మ ఇంద్రశ్చ మే సరస్వతీ చ మ ఇంద్రశ్చ మే ఉషా చ మ ఇంద్రశ్చ మే బృహస్పతిశ్చ మ ఇంద్రశ్చ మే మిత్రశ్చ మ ఇంద్రశ్చ మే వరుణశ్చ మ ఇంద్రశ్చ మే త్వషా చ మ ఇంద్రశ్చ మే ధాతా చ మ ఇంద్రశ్చ మే విష్ణుశ్చ మ ఇంద్రశ్చ మే శ్వినౌ చ మ ఇంద్రశ్చ మే మరుతశ్చ మ ఇంద్రశ్చ మే విశ్వే చ మే దేవా ఇంద్రశ్చ మే పృథివీ చ మ ఇంద్రశ్చ మే అంతరిక్షం చ మ ఇంద్రశ్చ మే ద్యౌశ్చ మ ఇంద్రశ్చ మే దిశశ్చ మ ఇంద్రశ్చ మే మూర్ధా చ మ ఇంద్రశ్చ మే ప్రజాపతిశ్చ మ ఇంద్రశ్చ మే అగుంశుశ్చ మే రశ్మిశ్చ మేరాభ్యశ్చ మే ధృపతిశ్చ మ ఉపాగుంశుశ్చ మే అంతర్యామశ్చ మ ఐంద్రవాయవశ్చ మే మైత్రావరుణశ్చ మ ఆశ్వినశ్చ మే పరిప్రస్థానశ్చ మే శుక్రశ్చ మే మంత్రీ చ మహాగ్రయణశ్చ మే మైశ్వరేవశ్చ మే ధ్రువశ్చ మే మైశ్వానరశ్చ మరుతుగ్రహాశ్చ మే దిగ్రాహ్యాశ్చ మ ఐంద్రాగ్రశ్చ మే వైశ్వదేవశ్చ మే మరుత్వదీయాశ్చ మే మాహేంద్రశ్చ మ ఆదిత్యశ్చ మే సావిత్రశ్చ మే సారస్వతశ్చ మే పౌష్ణశ్చ మే పార్థివశ్చ మే హార్యోజనశ్చ మే ఇద్మశ్చ మే బర్హిశ్చ మే వేదిశ్చ మే विष्णियाश्च मे शुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च म आधवनीयश्च म आग्नेर्धनम् च मे हविर्धानम् च मे गृहाश्च मे सरश्च मे पुरोणाशाश्च मे पचदाश्च मे वरुदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेश्वमेधश्च मे पृथिवी च मे तिथिश्च मे तिथिश्च मे द्यौश्च मे शक्वरीरङ्गुलयोदिशश्च मे यज्ञेन कल्पन्तामृत्य मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुदुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पिता गर्भाश्च मे वत्साश्च मे त्रयश्च मे त्रयवी च मे दित्यवाच मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच मे तुर्यौही च मे पष्टवाच मे पष्टौही च म उक्षा च मे वशा च मृषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् ज्ञानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पतारुश्रोत्रयज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंशतिश्च मे त्रयोविगुंशतिश्च मे पञ्चविगुंशतिश्च मे सप्तविगुंशतिश्च मे नवविगुंशतिश्च म एकत्रिगुंशच्च मे त्रयस्त्रिगुंशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंशतिश्च मे चतुर्विगुंशतिश्च मेऽष्टाविगुंशतिश्च मे द्वात्रिगुंशच्च मे षट्त्रिगुंशच्च मे चत्वारिगुंशच्च मे चतुश्चत्वारिगुंशच्च मेऽष्टाचत्वारिगुंशच्च मे वायश्च प्रथवश्चाभिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नीयश्चान्द्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च इडा देवोर्मनुर्यज्ञनिर्बृहस्पतिरुक्तामदानि शगुंसि षद्विश्वे देवाशोक्तवाच पृथिवीमातर्मा माहिगुंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमते देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्या मनुष्येभ्यस्तम् वा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति 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 ॐ तच्छय्योरावृणीमहे गातैर्यज्ञाय गातैर्यज्ञपतये दैवी
स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उदामृतत्वस्येषानः यदन्येनातिरोहति एतावारस्य महिमा अतो ज्यायादुश्च पूरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्ध्वउदैत्पुरुषः पादोऽस्येहा भवात् पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवायज्ञमतन्वता वदन्तो अस्यासीदाज्यम् ग्रीष्म हिद्मः शरद्धविः सप्तास्यासन् परिधयः त्रिसप्त समिध कृताः देवा यद्यज्ञम् तन्वाराः अवध्नन् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः सम्भृतम् पृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान् आरण्याम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त ये केचोभया ततः गावोह जग्निरे तस्मात् कस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कदिधा व्यकल्पयन् मुखम् किमस्य कौ बाहु का भूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यकृतः ऊरूदनस्य यद्वैश्यः पद्भ्यागुम् शूद्रो अजायत चन्द्रमावनसो जातः चक्षोसूर्यो अजायत मुखारिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्योद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् प्रतिशतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूत पृथिव्यैरसाः च विश्वकर्मणः समवर्ततादे तस्य त्वष्टा विदधद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुजाय ब्राह्मये रुजम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे हेष्यते लक्ष्मीश्च पत्यौ अहो रात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्याप्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्यो रावृणीमहे गातुर्यज्ञाय गातुर्यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् छन्दो अस्तु द्विपदे षञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ अत्रिणात्वार्थिमे हन्मि कर्मेण जमदग्निना विश्वावसोर्ब्रह्मणा हतः कृमीणागुम् राजा अप्येषा गुस्थपतिर्हतः अथो माताथो पिता अथो स्थूरा अथो क्षुद्राः अथो कृष्णा अथो श्वेताः अशो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमुह्यमस्य जम्भयोः आदधामि तथा हि तत् खण्भण्सि ओ शान्ति 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 ॐ पुरोहितम् यज्ञस्य देववृत्विजम् होतारम् रत्नधातवम् ऋग्वेदात्मने सूर्यनारायण स्वामिने नमः ऋषे त्वोर्जे त्वा वायवस्थोपायवस्त देवो वत्सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे यजुर्वेदात्मने सूर्यनारायण स्वामिने नमः अग्न आयाहि वीतये गृणानो हव्यदातये निहोता सत्सि बर्हिषि सामवेदात्मने सूर्यनारायण स्वामिने नमः शन्नो देवीरभिष्टय आपो भवन्तु पीतये शय्योरभिश्रवन्तु नः अथर्ववेदात्मने सूर्यनारायण स्वामिने नमः गृहस्सोऽय आदित्यो न प्रभावात्यक्षरम् मधुक्षरन्ति तद्रतम् सत्यम् वै तद्रतमापो ज्योतिरसोऽमृतम् ब्रह्मभूर्भुवः सुवरो छायासु वच्चलाम्बासमेत श्रीसूर्यनारायण स्वामिने नमः तरणिर्विश्वदर्शतो ज्योतिष्कृदति सूर्या विश्वमाभासि लोचनम् उपयाम गृहीतोऽसि सूर्याय त्वा भ्राजस्वत एषति योनिसूर्याय त्वा भ्राजस्वते छायासु वच्चलाम्बासमेत श्रीसूर्यनारायण स्वामिने नमः ॐ राम् उद्यन्नद्यमित्रमहः मित्राय नमः ॐ ह्रीम् आरोहन्नुत्तराम् दिवम् रवये नमः ॐ ह्रूम् रुद्रोदकम् मम सूर्या सूर्याय नमः ॐ ह्रैम् हरिमाणम् च नाशय भानवे नमः ॐ ह्रौम् शुकेषु मे हरिमाणम् खगाय नमः ॐ ह्रः रूपणाकासु दद्मसि ओष्णे नमः ॐ ह्राम् अतोहारिद्रवेषु मे हिरण्यगर्भाय नमः ॐ ह्रीम् हरिमाणम् निदद्मसि मरीचये नमः ॐ ह्रूम् उदगादयमादित्यः आदित्याय नमः ॐ ह्रैम् विश्वेन सहसा सह सवित्रे नमः ॐ ह्रौम् विशन्तम् मम रन्धयन् अर्काय नमः ॐ ह्रः मो अहम् द्विषतोरथम् भास्कराय नमः ॐ राम् ह्रीम् उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् मित्ररविभ्याम् नमः ॐ ह्रूम् ह्रैम् रुद्रोगम् मम सूर्या हरिमाणम् च नाशय सूर्यभानुभ्याम् नमः ॐ ह्रौम् ह्रः शुकेषु मे हरिमाणम् रूपणाकासु दद्मसि खगपूषभ्याम् नमः ॐ ह्राम् ह्रीम् अतोहारिद्रवेषु मे हरिमाणम् निदद्मसि हिरण्यगर्भमरीचभ्याम् नमः ॐ ह्रूम् ह्रैम् उदगादयमादित्यः विश्वेन सहसा सह आदित्यसवितृभ्याम् नमः ॐ ह्रौम् ह्रः विशन्तम् मम रन्धयन् मो अहम् द्विषतोरथम् अर्कभास्कराभ्याम् नमः ॐ ह्राम् ह्रीम् ह्रूम् ह्रैम् उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् रुद्रोगम् मम सूर्या हरिमाणम् च नाशय मित्ररविसूर्यभानुभ्यो नमः ॐ ह्रौम् ह्रः ह्राम् ह्रीम् शुकेषु मे हरिमाणम् रूपणाकासु दद्मसि अतो हारिद्रवेषु मे हरिमाणम् निधद्वसि खगपूष हिरण्यगर्भमरीचिभ्यो नमः ॐ ह्रूं ह्रैं ह्रौं ह्रः उदगादयमादित्यः विश्वेन सहसा सह विशन्तम् मम लङ्घयन् वो अहम् द्विषतो रथम् आदित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् रुद्रोऽगम् मम सूर्या हरिमाणम् च नाशया शुकेषु मे हरिमाणम् रूपणाकासु दद्मसे मित्ररविसूर्यभानुखगपूषभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः अथो हारिद्रवेषु मे हरिमाणम् निधद्मसे उदगादयमादित्यः विश्वेन सहसा सह विशन्तम् मम रन्धयन् वो अहम् द्विषतो रथम् हिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः उद्यन्नद्यमित्रमहः आरोहन्नुत्तराम् दिवम् रुद्रोऽगम् मम सूर्या हरिमाणम् च नाशया शुकेषु मे हरिमाणम् रोपणाकासु दद्मसे अथो हारिद्रवेषु मे हरिमाणम् निदद्मसे उदगादयमादित्यः विश्वेन सहसा सह विशन्तम् मम रन्धयन् वो अहम् द्विषतो रथम् मित्ररविसूर्यभानुखगपूष हिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमः आदित्यो वा एष एतन्मण्डलम् तपति तत्र चारु चक्तदृचामण्डलगुम् सरुचाम् लोकोदय एष एतस्मिन्मण्डले चिद्दीप्यति तानि सामानि सनाम् लोकोदय एष एतस्मिन्मण्डले त्रिषिपुरुषस्तानि यजोगुम् त्रिषयजुषा मण्डलगुम् सयजुषाम् लोकस्यैषात्रय्येव विद्या तपति य एषो नरादित्यै हिरण्मय पुरुषः छायातु वच्चलाम्बासमेत श्रीसूर्यनारायणस्वामिने नमः आदित्यो वै तेजोजो बलम् यशश्चक्षु श्रोत्रमात्मा मनो मन्युर्मनुर्मृत्युः सत्यो मित्रो वायुराकाश प्राणो लोकपालः कत्किङ्कम् तत्सत्यमन्नममृतो जीवो विश्व कतमः स्वयम्भु ब्रह्मैतदमृत एष पुरुष एष भूतानामधिपति ब्रह्मणस्यायुज्यगुम् स लोकतामाप्नोत्येतासामेव देवतानागुम् सायुज्यगुम् साष्टितागुम् समानलोकतामाप्नोति य एव ते देत्युपनिषत् छायासु वच्चलाम्बासमेत श्रीसूर्यनारायणस्वामिने नमः ॐ शान्ति शान्ति शान्तिः ॐ सहनावतु सहनौ भुनक्तु सह वीर्यम् करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। ॐ अथ पुरुषो हवै नारायणो कामयतः प्रजा सृजेयेति। नारायणात् प्राणो जायते, मनः सर्वेन्द्रियाणि च, खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी। नारायणात् ब्रह्मा जायते, नारायणात् रुद्रो जायते, नारायणादिन्द्रो जायते, नारायणात् प्रजापतयः प्रजायन्ते, नारायणाद्वादशादित्या रुद्रावसवः सर्वाणि च छन्दागुंसि। नारायणाद्देव समुत्पद्यन्ते, नारायणे प्रवर्तन्ते, नारायणे प्रलीयन्ते। ॐ अथ नित्यो नारायणः, ब्रह्मा नारायणः, शिवश्च नारायणः, शक्रश्च नारायणः, द्रावा पृथिव्यौ च नारायणः, कालश्च नारायणः, दिशश्च नारायणः, ऊर्ध्वश्च नारायणः, अधश्च नारायणः, अन्तर्बहिश्च नारायणः। नारायण एवेदगुम् सर्वम् यद्भूतं यच्च भव्यम्। निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः, न द्वितीयोऽस्ति कश्चित्। य एवम् वेद स विष्णुरेव भवति, स विष्णुरेव भवति। ओमित्यग्रे व्याहरेत् नम इति पश्चात्, नारायणायेत्युपरिष्टात्। ओमित्येकाक्षरम् नम इति द्वे अक्षरे, नारायणायेति पञ्चाक्षराणि। एतद्वै नारायणस्याष्टाक्षरम् पदम्, यो ह वै नारायणस्याष्टाक्षरम् पदमध्येति। अनपब्रुवः सर्वमायुरेति, विन्दते प्राजापत्यम् रायस्पोषम् गौपत्यम्। ततोऽमृतत्वमश्नुते, ततोऽमृतत्वमश्नुत इति। य एवम् वेद प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम्, अकार उकारमकार इति। तानेकधा समभरद्ददेतदोमिति। यमुक्त्वा मुच्यते योगी जन्म संसार बन्धनात्। ॐ नमो नारायणायेति मन्त्रोपाशकः, वैकुण्ठ भुवन लोकम् गमिष्यति। तदिदम् परम् पुण्डरीकम् विज्ञानघनम्, तस्मात्तदिदावन्मात्रम्। ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनो, सर्वभूतस्थमेकम् नारायणम्, कारणरूपमकार परब्रह्म। एतदथर्वशिरो यो धीति प्रातरधेयानो, रात्रिकृतम् पापम् नाशयति। सायमधेयानो दिवसकृतम् पापम् नाशयति। माध्यम् दिनमादित्याभिमुखो धेयान पञ्चपातकोपपातकात् प्रमुच्यते। सर्ववेदपारायण पुण्यम् लभते, नारायण सायुज्यमवाप्नोति, नारायण सायुज्यमवाप्नोति। य एवम् वेद इत्युपनिषत्। सहनावतु, सहनौ भुनक्तु, सह वीर्यम् करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। स्वस्ति प्रजाभ्यः परिपालयन्ताम् న్యాయేన మార్గేణ మహిమహిషాః గోబ్రాహ్మణేభ్యః శుభమస్తు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు శాంతి శాంతి శాంతి.